ओम नमो भगवते वासुदेवाय। अथ द्वाविंशोऽध्यायः। श्रीशुक उवाच, हेमन्ते प्रथमे मासि नन्दव्रजकुमारिकाः चेरुर्हविष्यं भुञ्जानाः कात्यायन्यर्चनव्रतम्। आप्लुत्याम्भसि कालिन्द्याजलान्ते चोदितेरुणे कृत्वा प्रतिकृतिं देवीमानर्चुर्नृपसैकतीम्। गन्धैर्माल्यैः सुरभिभिर्बलिभिर्धूपदीपकैः उच्चावचैश्चोपहारैः प्रवालफलतण्डुलैः कात्यायनि महामाये महायोगिन्यधीश्वरि नन्दगोपसुतं देवीपतिं मे कुरु ते नमः। इति मन्त्रं जपन्त्यस्ताः पूजां चक्रुः कुमारिकाः। एवं मासं व्रतं चेरुः कुमार्यः कृष्णचेतसः। भद्रकालीं समानर्चुर्भूयान्नन्दसुतः पतिः। उषस्युत्थाय गोत्रैः स्वैरन्योन्याबद्धबाहवः। कृष्णमुच्चैर्जगुर्यान्त्यः कालिन्द्यां स्नातुमन्वहम्। नद्यां कदाचिदागत्य तीरे निक्षिप्य पूर्ववत् वासांसि कृष्णं गायन्त्यो विजर्रुः सलिले मुदा। भगवांस्तदभिप्रेत्य कृष्णो योगेश्वरेश्वरः। वयस्यैरावृतस्तत्र गतस्तत्कर्मसिद्धये। तासां वासांस्युपादाय नीपमारुह्य सत्वरः। असद्भिः प्रहसन् बालैः परिहासमुवाचः। अत्रागत्या बलाः कामं स्वं स्वं वासः प्रगृह्यताम्। सत्यं ब्रवाणि नो नर्म यद्यूयं व्रतकर्षिताः। न मयोदितपूर्वं वा अनृतं तदिमे विदुः। एकैकशः प्रतीच्छध्वं सहैवोत सुमध्यमाः। तस्य तत्क्ष्वेलितं दृष्ट्वा गोप्यः प्रेम परिप्लुताः। व्रीडिताः प्रेक्ष्यचान्योन्यं जातहासान निर्ययुः। एवं ब्रुवति गोविन्दे नर्मणा क्षिप्तचेतसः। आकण्ठमग्नाः शीतोदे वेपमानास्तमब्रुवन्, मानयं भो कृतास्त्वां तु नन्दगोपसुतं प्रियं। जानीमोऽङ्गव्रजश्लाघ्यं देहि वासांसि वेपिताः। श्यामसुन्दर ते दास्यः करवाम तवोदितं। देहि वासांसि धर्मज्ञ नो चेद्राज्ञे ब्रुवामहे। श्रीभगवानुवाच, भवत्यो यदि मे दास्यो मयोक्तं वा करिष्यथ। अत्रागत्य स्ववासांसि प्रतीच्छन्तु शुचिस्मिताः। ततो जलाशयात् सर्वा दारिका शीतवेपिताः। पाणिभ्यां योनिमाच्छाद्य प्रोत्तेरुः शीतकर्षिताः। भगवानाहतावीक्ष्य शुद्धभावप्रसादितः। स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम्, यूयं विवस्त्रा यदपोधृतव्रता व्यगाहतैतत्तदु देवहेलनम्। बद्ध्वाञ्जलिं मूर्ध्न्यपनुद्दयेम् हसः कृत्वा नमोधो वसनं प्रगृह्यताम्। इत्यच्युतेनाभिहिता व्रजा बला मत्वा विवस्त्रा प्लवनं व्रतच्युतिम्। तत्पूर्तिकामास्तदशेषकर्मणां साक्षात् कृतं नेमुरवद्य मृग्यतः। तास्तथा वनता दृष्ट्वा भगवान् देवकीसुतः वासांसि ताभ्यः प्रायच्छत् करुणस्तेन तोषितः। दृढं प्रलब्धास्त्रपया च हापिताः प्रस्तोभिताः क्रीडनवच्चकारिताः। वस्त्राणि चैवापहितान्यथाप्यमुं तानाभ्यसूयन् प्रियसङ्गनिर्वृताः। परिधाय स्ववासांसि प्रेष्टसङ्गमसज्जिताः। गृहीतचित्ता नो चेल्लुस्तस्मिन् लज्जायते क्षणाः। तासां विज्ञाय भगवान् स्वपादस्पर्शकाम्यया धृतव्रतानां सङ्कल्पमाह दामोदरो बलाः। सङ्कल्पो विदितः साध्व्यो भवतीनां मदर्चनम्। मयानुमोदितः सोऽसौ सत्यो भवितुमर्हति। न मय्या वेषितधियां कामः कामाय कल्पते। भर्जिता क्वथिता धाना प्रायो बीजाय नेष्यते। याता बला व्रजं सिद्धा मयेमारंस्यथ क्षपाः। यदुद्दिश्य व्रतमिदं चेरुरार्यार्चनं सतीः। श्रीशुक उवाच, इत्यादिष्टा भगवता लब्धकामाः कुमारिकाः। ध्यायन्त्यस्तत्पदां भोजं कृच्छ्राण्निर्विविशुर्व्रजम्। अथ गोपैः परिवृतो भगवान् देवकीसुतः। वृन्दावनाद्गतो दूरं चारयन् गासहाग्रजः। निदाघार्का तपे तिग्मे छायाभिः स्वाभिरात्मनः। आतपत्रायितान् वीक्ष्य द्रुमानाः व्रजौकसः। हे स्तोक कृष्ण हे अंशो श्रीदामन् सुबलार्जुन विशालर्षभ तेजस्विन् देवप्रस्तवरूथप। पश्यतैतान् महाभागान् परार्थैकान्तजीवितान्। वातवर्षातपहिमान् सहन्तो वारयन्तिनः अहो येषाम् वरम् जन्म सर्वप्राण्युपजीवनम् सुजनस्येव येषाम् वै विमुखा यान्ति नार्थिनः पत्रपुष्पफलच्छायामूलवल्कलदारुभिः गन्धनिर्यासभस्मास्थितोक्मैः कामान् वितन्वते एतावज्जन्मसाफल्यम् देहिनामिह देहिषु प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत् सदा इति प्रवालस्तबकफलपुष्पदलोत्करैः तरूणाम् नम्रशाखानाम् मध्येन यमुनाम् गतः तत्र गाः पाययित्वापः सुमृष्टाः शीतलाः शिवाः ततो नृपस्वयम् गोपाः कामम् स्वादुपपुर्जलम् तस्या उपवने कामम् चारयन्तः पशून् नृप कृष्णरामावुपागम्य क्षुधार्ता इदमब्रुवन् ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे गोपी वस्त्रापहारो नाम द्वाविंशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।